सर्वेभ्यः अद्य कोविदवर्गस्य षष्ठः पाठः एप्रिल् मासस्य षष्ठः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो अस्मिन् शनिवासरवर्गे वयं काव्यांशानाम् अध्ययनं कुर्मः तत्र आदौ अलङ्काराणां विषये वयं पठन्तः स्मः तत्र अलङ्कारः द्विविधः भवति शब्दालङ्कारः अर्थालङ्कारः इति शब्दालङ्कारेषु अनुप्रासः यमकः इति भेदद्वयम् अस्माभिः दृष्टम् अनुप्रासे छेकानुप्रासः वृत्त्यनुप्रासः इति विधद्वयम् एवं यमकालङ्कारं च ज्ञातवन्तः अर्थालङ्कारेषु पञ्च अलङ्काराः अत्र निर्दिष्टाः तत्र उपमालङ्कारस्य विषये गतवर्गे वयं ज्ञातवन्तः उपमा नाम का उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः यत्र उपमान उपमेययोः द्वयोः पदार्थयोः सादृश्यम् अत्यन्तं रमणीयतया वर्ण्यते सः अलङ्कारः उपमा इति कथ्यते यथा मुखं चन्द्रः इव सुन्दरम् इत्यस्ति तत्र उपमालङ्कारे चत्वारि अङ्गानि भवन्ति उपमेयः यत् वस्तु वर्ण्यते सः उपमेयः यथा मुखम् उपमानं येन सह तुलना क्रियते यथा चन्द्रः साधारणधर्मः यदा सादृश्यं वर्ण्यते तत्र समानः कोऽपि गुणः उभयोः भवेत् तत् सौन्दर्यम् अत्र किमर्थं मुखं चन्द्रः इव इति उच्यते चन्द्रे अपि सौन्दर्यमस्ति तथा मुखे अपि सौन्दर्यम् अस्ति अतः साधारणधर्मः सौन्दर्यम् अनन्तरम् उपमावाचकः शब्दः अत्र उपमा अस्ति सादृश्यम् अस्ति इति बोधयितुं किमपि पदं भवति तत् उपमावाचकं यथा इव शब्दः इति कथ्यते अस्य विषये एव गृहकार्यमासीत् यत्र कानिचन वाक्यानि दत्तानि तेषु उपमायाः अङ्गानि उक्त्वा पूर्णोपमा अथवा लुप्तोपमा यत्र उपमालङ्कारे सर्वाणि अङ्गानि भवन्ति सा पूर्णोपमा इति कथ्यते यत्र तु किमपि अङ्गं न उच्यते सा लुप्तोपमा इति कथ्यते तत्र ललनायाः मुखं चन्द्रवत् सुन्दरम् इति प्रथमं वाक्यमासीत् ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु विपश्चित् चैतन्य
नमस्ते श्रूयते वा
श्रूयते वदतु
ललना उपमा इह पूर्णोपमा अस्ति
पूर्णोपमा सम्यक्
उपमेयः ललनाया ललना
ललना एव उपमानं
वा उपमेयः मुखं
मुखं सम्यक् ललनायाः मुखं हा
उपमानं चन्द्रः
चन्द्रः उपमानं
साधारणधर्मः सौन्दर्यं
सौन्दर्यं साधारणधर्मः
उपमावाचकं वत्
वत् इति उपमावाचकं पदं सर्वाणि अङ्गानि अस्ति इत्यतः इयं पूर्णोपमा भवति उत्तमम् अग्रिमं वाक्यमस्ति गृहं प्रासादः इव विशालम् अस्ति सुब्रह्मण्यं महोदय
अत्र उपमेयः गृहम् उपमानं प्रासादः उपमावाचकम् इव साधारणधर्मः वैशाल्यं
वैशाल्यं साधारणधर्मः इव इति उपमावाचकम् अतः इयं कीदृशी उपमा
पूर्णोपमा
पूर्णोपमा सर्वाणि अंगानि सन्ति इत्यतः इयम् पूर्णोपमा द हाउस इज वेरी स्पेशियस और बिग लाइक अ पैलेस प्रासादः पैलेस तत्र उभयत्र वैशाल्यं साधारण धर्मः पूर्णोपमा इयम् पयोहिमं हिममेव शीतलम् श्रीमती भगिनी
उपमेयः पयोहिमं उपमानं हिमं साधारणधर्मः इव उपमावाचकम् इव
पूर्णोपमा सम्यक् पयोहिमम् इत्युक्ते किम्
ऐस्क्रीम्
सम्यक् पयोहि क्षम्यताम् वदतु
प्रासादः इत्युक्ते बाल्कनी अपि वक्तुं शक्यते वा
भवति कदाचित् किन्तु बृहतः भवनस्य उपरितनभागः प्रासादः इत्युच्यते राजप्रासादः इति यदा उच्यते तदा पालेस् इत्यर्थे भवति प्रासादात् पश्यति इति प्रयोगः यदा क्रियते तत्र बृहत् यत्किमपि भवनं भवति तस्य उपरितनभागे अट्टः बाल्कनि इत्यर्थे अपि प्रयोगः भवति पयोहिमम् ऐस्क्रीम् हिमं स्नो उभयोः साधारणधर्मः शीतलत्वम् अग्रे तस्याः नेत्रे कमलदलसदृशे रोहन् महोदय
नमो नमः अत्र लुप्त उपमा उपमेयः नेत्रे उपमानं कमलदलं कमलदले
द्वे कमलदले और कमलदलम्
साधारणधर्म इज नॉट गिवन
साधारण
उपमा वाचकं सदृशे
सदृशे अतः अत्र साधारणधर्मः नास्ति प्रायः सौन्दर्यम् अथवा वैशाल्यम् सो यदा नेत्रयोः कमलदलेन सह तुलना क्रियते तत्र विशालत्वं सामान्यतः साधारणधर्मत्वेन स्वीक्रियते अथवा सौन्दर्यम् अत्र तु न उच्यते अतः इयं लुप्तोपमा भवति अग्रिमं वाक्यम्
नमस्ते मानि तस्य ध्वनिः कोकिलस्य इव उपमेयः तस्य ध्वनिः उपमानं कोकिलस्य
ध्वनिः इति इम्प्लैड्
साधारणधर्मः लुप्तः
साधारणधर्म
माधुर्यं
माधुर्यं साधारणधर्मः न उच्यते
उपमावाचकम् इव लुप्तोपमा
अतः लुप्तोपमा भवति सम्यक् उत्तमं सो तस्य ध्वनिः कोकिलस्य ध्वनिः इव इति इट् इस् इम्प्लैड् कोकिलस्य किं कोकिलस्य ध्वनिः इव ध्वनिः मधुरः इति साधारणधर्मः नोच्यते अग्रे मञ्जु गुप्त न श्रूयते मञ्जुगुप्त प्रिया भगिनी
घनश्यामं वन्दे लुप्तोपमा उपमेयः अत्र न दत्तः उपमानं घनः साधारणधर्मः श्यामलत्वम्. उपमावाचकशब्दमपि
नास्ति. सम्यक्
नास्ति.
अतः इयं लुप्तोपमा. अत्र घनश्यामः नाम घनः इव श्यामः. अयं समासः घनः इत्युक्ते मेघः. यः मेघः इव श्यामः कृष्णवर्णः तं नमस्करोमि इत्यर्थः. कः घनश्यामः इति नोच्यते. रामः अथवा कृष्णः, विष्णुः, सर्वत्र सामान्यतः इदम् उपयुज्यते. अतः घनश्यामम् इत्यत्र उपमेयः कः इति न निर्दिश्यते. उपमावाचकशब्दः अपि नास्ति. घनः उपमानं, साधारणधर्मः श्यामत्वम्. अतः इयं लुप्तोपमा इति कथ्यते. अत्र केनचित् पृष्टम् अत्र त्वम् इति किमर्थं योज्यते, श्यामत्वं, शीतलत्वं, सौन्दर्यं. तत्र श्यामः इत्युक्ते श्यामगुणयुक्तः, यस्मिन् सः गुणः अस्ति. ही इस् ब्लाक्. सो तत्र गुण, ब्लाक् इस् अ कलर्. ही हू हेज् द ब्लाक् कलर् इस् आल्सो काल्ड् ब्लाक्. सो अत्र श्यामः इत्युक्ते यस्मिन् सः गुणः अस्ति सः श्यामः. यदा तु साधारणधर्मः इति उच्यते तत्र तं गुणं बोधयितुम् अस्माभिः सौन्दर्यं, श्यामत्वं, शीतलत्वम् इत्यादि उपयुज्यते. तावदेव. सो वाक्ये धर्मः न भवति, धर्मयुक्तस्य द्रव्यस्य एव निर्देशः भवति. अतः धर्मं बोधयितुं वयम् एतादृशपदं प्रयुञ्ज्महे. वीरः तस्मिन् वीर्यं भवति, सुन्दरः तस्मिन् सौन्दर्यं भवति इत्यादि. घनः इत्युक्ते किम् इति अपरः प्रश्नः. घनः मेघः, क्लौड् इत्यर्थः. अग्रिमं वाक्यं पश्यामः. हंसीव कृष्णते कीर्तिः स्वर्गङ्गाम् अवगाहते. इदं तु वस्तुतः तत्र कुवलयानन्दः इति ग्रन्थः अस्ति. तत्र उपमालङ्कारस्य उदाहरणत्वेन इदमेव वाक्यं दीयते. चन्द्रशेखरन् महोदय.
हंसि इति हे कृष्ण इति अस्ति. तत्र उपमेयशब्दः कृष्णः. हंसि इति उपमानम्.
कृष्णः हंसि इव अस्ति वा?
तत्र कृष्णः कीर्तिः, कृष्णस्य कीर्तिः.
कीर्तिः सम्यक्. कृष्णस्य कीर्तिः हंसि एव. अतः हे कृष्ण ते कीर्तिः नाम तव कीर्तिः हंसि इव. अतः कीर्तिः, कृष्णस्य कीर्तिः उपमेयः, हंसि उपमानम्.
इव इति उपमावाचकशब्दः. साधारणधर्मः अत्र
स्वर्गङ्गाम् अवगाहते. वस्तुतः वाक्यस्य अर्थः कविः कृष्णं कथयति तव कीर्तिः हंसि इव स्वर्गङ्गाम्, स्वर्गलोकस्य गङ्गानद्याम् अवगाहते, स्नानं करोति. इत्युक्ते कः अर्थः? तावत्पर्यन्तमपि कीर्तिः गता अस्ति इत्यर्थः. अतः स्वर्गङ्गा अवगाहनम्. स्वर्गलोके या गङ्गानदी प्रवहति तत्र निमज्जति इति साधारणधर्मः. यथा कश्चित् हंसः बहु उपरि उड्डीय स्वर्गलोके गङ्गानद्यां स्नाति, एवं कृष्णस्य कीर्तिः अपि इति. अतः स्वर्गङ्गा अवगाहनं साधारणधर्मः. इव इति उपमावाचकशब्दः. यं पूर्णोपमा. सो अत्र कीर्तिः सर्वत्र प्रसृता अस्ति इत्यर्थः. హే కృష్ణ తవ కీర్తి యువర్ ఫేమ్ లైక్ అ స్వాన్ హాజ్ ప్లంజ్డ్ ఇన్ టు ద హెవెన్లీ గ్యాంజెస్ విచ్ మీన్స్ దట్ హిస్ ఫేమ్ హాజ్ స్ప్రెడ్ టిల్ ద హెవెన్ ఇత్యర్థః తావదేవ అతః కృష్ణస్య కీర్తి ఉపమేయః హంసీ ఉపమానం స్వర్గంగావగాహనం సాధారణ ధర్మః ఇవ ఇతి ఉపమావాచకః శబ్దః అగ్రిమం వాక్యమస్తి కైలాసగౌరః నందీ రామానుజం మహోదయ
నమస్తే ఉపమేయః నందీ ఉపమానం కైలాసః సాధారణ ధర్మ గౌరవత్వం గౌరత్వం ఉపమాన వాచకం అత్ర నాస్తి లుప్తోపమా
ఇయం లుప్తోపమా సమ్యక్ కైలాస గౌరః ఇత్యుక్తే కైలాసః ఇవ శుభ్రవర్ణః నందీ అపి శ్వేతః శ్వేతవృషభః ఏవం కైలాసః అపి శ్వేతః అతః కైలాసః ఇవ సః గౌరః ఇత్యర్థః అయం తు వస్తుతః కాళిదాసస్య ఉపమా కైలాసగౌరం వృషమారురుక్షోః అగ్రే రఘువంశే పఠామః కైలాసగౌరః నందీ ఇత్యత్ర ఉపమా వాచకః శబ్దః నాస్తి అతః ఇయం లుప్తోపమా ఇతి కథ్యతే అగ్రిమం వాక్యం ఉమాదేవి యు హావ్ టు అన్మ్యూట్ యువర్సెల్ఫ్
నమస్కారం శిశువత్ ముగ్ధ మనాః మమ పితామహః ఉపమేయః పితామహః మమ పితామహః ఉపమానం శిశుః సాధారణ ధర్మః ముగ్ధ మనాః ఉపమావాచకం వత్ పూర్ణోపమా
అస్తి మమ పితామహః శిశువత్ ముగ్ధమనః ఆఫ్ ఇన్నోసెంట్ నేచర్ లైక్ అ చైల్డ్ సో తత్ర ఇన్నోసెన్స్ ముగ్ధమనస్కత ఏవ సాధారణ ధర్మః వత్ ఇతి ఉపమావాచకం ఇయం పూర్ణోపమా అంతిమం వాక్యం ప్రియా చంద్రనిభాననా రామాయణస్య శ్లోకస్య భాగః అయం యామిని భగిని యు హావ్ టు అన్మ్యూట్ యువర్సెల్ఫ్ యామిని శ్రీనివాసన్ మైక్రోఫోన్ ఉపరి క్లిక్ కరోతి చేత్
హలో
వదతు శ్రూయతే
ప్రియా చంద్ర నిబానన ప్రియా ఇస్ ద ఉపమేయ ఉపమానం ఇస్ చంద్ర చంద్ర నిబానన
చంద్ర ఉపమానం
చంద్ర అండ్ సాధారణ ధర్మ ఇస్ నిబానన
చంద్ర నిబానన మీన్స్ ఆననం ముఖం నిభ మీన్స్ సదృశ లైక్ చంద్ర వాక్యస్య అర్థః మమ ప్రియా సీతాయాః విషయే రామః వదతి చంద్ర నిభానన ఇదానీం చంద్రః ఇవ కిమస్తి
ప్రియా ఇస్ లైక్ చంద్ర
ప్రియా హర్సెల్ఫ్ ఇస్ లైక్ చంద్ర ఆర్ హర్ ఫేస్
ఆననం ఇస్ ఫేస్ సో ప్రియా ఫేస్ ఇస్ లైక్ చంద్ర
అతః ప్రియాయాః ఆననం ఉపమేయః
ఓకే సో ఉపమానం ఇస్ చంద్ర అండ్ సాధారణ ధర్మః ఇస్ ఐ యామ్ నాట్ ష్యూర్
नास्ति न उक्तः चन्द्रः इव अस्ति तावदेव चन्द्रः इव सौन्दर्यं नास्ति
and upamavachakam is not there
nibha
nibha
means
okay
chandra sadrisha mukhi ityarthah chandra nibhanana ityasya
so it is lupta upama
lupta upama sadharana dharmah nasti ityatah iyam lupta upama bhavati chandra nibhanana indu sadrisha mukhi ityarthah अनेन उपमालङ्कारस्य विषयः ज्ञातः इति भावयामि अत्र एकः प्रश्नः स्वर्गङ्गा इति किमर्थम् उच्यते स्वर्गगङ्गा इति न इति स्वर् स्वर्ग उभयोः समानः अर्थः तत्र अमरकोशे प्रथमं पदमस्ति स्वर् स्वरव्ययं स्वर्गनाकत्रिदिवत्त्रिदशालयाः अतः स्वर्गः इत्यर्थे एव स्वर् इति अव्ययमस्ति स्वर्गङ्गा स्वर्गगङ्गा इति अर्थः समानः अपरः प्रश्नः इस् देर् एनी उपमालङ्कार वित् मोर् देन् वन् अट्रिब्यूट् कः अर्थः अर्थः नावगतः प्रश्नस्य यामिनी भगिनी
I wanted in all this upamalankara there is one attribute only there is one comparison are there two comparisons anyway
yeah bhavati bahudha bhavati atra tu prathamika staraha ityatah ekameva dattam asti yatha kim jatitina spurati bahutra bhavati you mean with two or more things being compared
yes bhavati
atra vastatah adyatana abhyase ekam asti tat pashyatu anantaram agrima saptahe vakshyami tatra asti yatha sitapyanugata ramam shashinam rohini yatha ityasti so sita ramam anugacchati katham anugacchati shashinam rohini yatha rohini chandram anugacchati evam सीता रामम् अनुगच्छति अत्र सीता उपमेयः रोहिणी उपमानम् एवमेव रामः उपमेयः चन्द्रः उपमानम् सो यथा रोहिणी शशिनम् अनुगच्छति एवं सीता रामम् अनुगच्छति इति भवति क्वचित् काव्येषु बहुषु अंशेषु साम्यं प्रदर्श्यते अस्तु इतोपि केचन प्रश्नाः सन्ति निभा इस् लस्टर् न निभा इत्यस्य सदृश इत्यर्थः भाः इत्यस्य कान्तिः इत्यर्थः अस्ति किन्तु निभा इत्यस्य समासे एव प्रयोगः भवति सदृशः इत्यर्थः उपमावाचकः शब्दः सः उपमान उपमेययोः लिङ्गं समानं भवेत् वा इति प्रश्नः सामान्यतः समानं भवति तथैव कुर्वन्ति किन्तु सर्वत्र भवति इति नास्ति यथा मुखं चन्द्रः इत्यत्र नास्ति मुखम् इति नपुंसकलिङ्गे चन्द्रः इति पुल्लिङ्गे किन्तु बहुत्र भवति तत्र यत्र तदपि अस्ति सा उत्तमा बहु सा उपमा अत्यन्तम् उत्तमा इति वदन्ति यथा अग्रे पश्यामः रघुवंशस्य प्रथमश्लोके वागर्थाविव सम्पृक्तौ आगर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ तत्र वाक् अर्थः वाक् इति स्त्रीलिङ्गे अस्ति अर्थः इति पुल्लिङ्गे एवमेव पार्वती परमेश्वरौ बहुत्र श्रेष्ठाः कवयः लिङ्गमपि अनुसरन्ति यत्र शक्यते तत्र किन्तु भवेदेव इति नियमः तु नास्ति समानलिङ्गत्वम् भा साधारणधर्मः वा इति पृच्छ्यते पुनः तदेव भा इति अस्य कान्तिः इत्यर्थः न निभ इत्यस्य सदृश इत्यर्थः चन्द्र निभ आनन सो भा इति नास्ति अत्र अतः साधारणधर्मः नास्ति निभ इत्यस्य सदृशः समानः तुल्यः इति अर्थः तत्र आयुर्वेदे पद्मालक्तक सन्निभम् सत्यं सन्निभा निभ सर्वे शब्दाः सदृश इत्यर्थकाः तत्र पद्म सदृशम् अथवा अलक्तकरसवत् रक्तवर्णम् इति अर्थः भवति अन्यः एकः प्रश्नः भवति साधा वै इस् इट् काल्ड् साधारणधर्म इस् देर् अ विशेषधर्म आल्सो वस्तुतः साधारणः विशेषः इति किमर्थम् उच्यते साधारण इत्यस्य आर्डिनरि इत्यर्थः न कासुचित् प्रादेशिकभाषासु आर्डिनरी स्पेशल् इति अर्थः भवति साधारणशब्दस्य सः अर्थः न संस्कृते साधारणं नाम कामन् इत्यर्थः विशेषः स्पेशल् यत्तु बहुत्र भवति सः साधारणधर्मः एकस्मिन् एव भवति चेत् सः विशेषधर्मः अत्र उपमान उपमेययोः कामन् फ्याक्टर् उच्यते इत्यतः साधारणधर्मः इति उच्यते सो इट् डस् नाट् मीन् आर्डिनरी इट् मीन्स् कामन् इत्यर्थः बहुत्र यः धर्मः भवति सः साधारणधर्मः अस्तु अग्रे गच्छामः तत्र अत्र शिशुवत् मुग्धमनाः इत्यत्र साधारणधर्मः मौग्धत्वं मौग्ध्यम् इत्यपि भवितुमर्हति मुग्धत्वम् अथवा मौग्ध्यम् इस् इन्नोसेन्स् सो अत्र मुग्धमनाः मुग्धमनस्कता इत्यस्य तु हाविङ्ग् एन् इन्नोसेण्ट् नेचर् इत्यर्थः अतः मुग्धत्वम् अथवा मौग्ध्यं साधारणधर्मः इत्यपि वक्तुं शक्यते अग्रे गच्छामः अद्यतन अलङ्काराः अद्य अलङ्कारद्वयं वयं पठामः रूपकालङ्कारः तथा अतिशयोक्तिः सामान्यतः अन्ये सर्वेपि अलङ्काराः उपमालङ्कारस्य फौण्डेशन् आश्रित्य एव भवन्ति रूपकालङ्कारः रूपकं नाम किम् अभेदो भासते यस्मिन् उपमान उपमेययोः इति रूपकालङ्कारस्य लक्षणं भवति अभेदो भासते यस्मिन् उपमान उपमेययोः यत्र उपमान उपमेययोः अभेदः भेदः डिफरेन्स् अभेदः न भेदः अभेदः भेदस्य अभावः वर्ण्यते सः रूपकालङ्कारः सो रूपक इस् एन् अलङ्कार वेर् उपमान एण्ड् उपमेय आर् डिस्क्रैब्ड् टु बी द सेम् उपमालङ्कारे किमुच्यते उपमेयः उपमानम् इव अस्ति उपमेय इस् लैक् उपमान यत्र उपमेयः भिन्नः उपमानं भिन्नम् इति स्पष्टमुच्यते यदा तु इतोपि सादृश्यम् अत्यधिकं भवति उपमान उपमेययोः भेदः एव नास्ति इति उच्यते तत्र रूपकालङ्कारः भवति अयं राजा साक्षात् परमेश्वरः राजा अस्ति परमेश्वरः अस्ति यदि राजा परमेश्वरः इव परमेश्वरतुल्यः परमेश्वरसदृशः इत्यादि उच्यते तत्र उपमालङ्कारः किन्तु अत्र किमुच्यते अयमेव परमेश्वरः भेदः एव नास्ति राजा एव परमेश्वरः सो द किङ्ग् इस् परमेश्वर हिम्सेल्फ् सो देर् इस् नो डिफरेन्स् सो वेर् वी आर् सेयिङ्ग् दट् द उपमेय इस् सो मच् लैक् द उपमान दट् देर् डिफरेन्स् इस् इरेस्ड् भेदः नास्ति अभेदः वर्ण्यते सः रूपकालङ्कारः इति कथ्यते इयं मम गृहस्य लक्ष्मीः इति कश्चित् वदति पतिः गृहिणीम् उद्दिश्य इयं मम गृहस्य लक्ष्मीः सा लक्ष्मी सदृशी न सा एव लक्ष्मीः तत्र तस्याः लक्ष्म्याश्च मध्ये भेदः नास्ति अर्थात् उपमालङ्कारे वयम् उपमावाचकं विना तदेव एतत् इति वर्णयामः साधारणधर्मः अपि नोच्यते साक्षात् उपमेयः अस्ति अयमेव इद उपमानम् इति वर्ण्यते सः रूपकालङ्कारः भवति. कानिचन उदाहरणानि पश्यामः. तस्याः करकिसलयः कोमलः. करः किसलयः, करः हस्तः, किसलयः टेण्डर् शूट् और् टेण्डर् लीव्स् काल् किसलयः. सो करकिसलयः हस्तः अत्यन्तं मृदुः. कथं किसलयः इव, तत्र किसलयसादृश्यं वर्णनीयं, किन्तु करः एव किसलयः इति कथ्यते, अतः रूपकालङ्कारः. अहं वचनकुसुमैः अर्चयामि, अर्चयामि पूजां करोमि. कैः पूजा क्रियते? कुसुमैः, पुष्पैः पूजा क्रियते. किन्तु अत्र पुष्पं किं? वचनानि एव कुसुमानि. स्तुतिवचनानि अथवा स्तोत्राणि कथ्यन्ते, तानि एव पुष्पाणि, तैः पूजां करोमि इत्यर्थः. विद्याधनं सर्वधनप्रधानम्. विद्या रूपं यद्धनमस्ति, विद्या एव धनं, तच्च सर्वधनापेक्षया अत्यन्तं मुख्यम् इत्युच्यते. विद्या धनम् उभयोः अभेदः अस्ति. प्रजाः एव मम देवताः इति कश्चित् राजा कथयति, अथवा अस्माकं नेतारः अधुना निर्वाचनकाले तु कथयन्ति. प्रजाः एव मम देवताः इति, तत्र प्रजानां देवतानाम् अभेदः. कदाचित् रूपकालङ्कारे रूपकवाचकं पदम् इति किमपि नास्ति, यथा उपमालङ्कारे उपमावाचकं पदं भवति, रूपकालङ्कारे भवेदेव इति नास्ति. किमपि नास्ति चेत्, उपमानम् उपमेयः अस्ति चेत् अभेदः इति ज्ञायते. किन्तु कदाचित् कानिचन पदानि विशिष्य रूपकालङ्कारः इति दृढयन्ति, यथा एव इत्यस्ति चेत् सः रूपकालङ्कारः, साक्षात् इत्यस्ति चेत् रूपकालङ्कारः. एवं कानिचन पदानि सन्ति चेत् निश्चयेन रूपकालङ्कारः, किन्तु तादृशं पदं भवेदेव इति तु नास्ति. गोकर्णक्षेत्रं भूकैलासः. भूलोकस्य कैलासः एव किं गोकर्णम् इति कथ्यते, तत्रापि रूपकालङ्कारः. कैलाससदृशः न, स एव कैलासः. सो रूपक इस् मेटफर् वेर् वि आर् सेयिङ्ग् दट् द उपमेय इट्सेल्फ् ईस् द उपमान. इट् इस् नाट् लैक् द उपमान, इट् ईस् द उपमान. बहूनि उदाहरणानि सन्ति तत्र रूपकालङ्कारस्य. अत्र प्रश्नः, तर्हि साधारणधर्मः न भवति इति वा? साधारणधर्मः भवति. साधारणधर्मं विना सादृश्यमेव न शक्यते, किन्तु वक्तव्यम् इति नास्ति. साधारणधर्मः वक्तव्यः इति नास्ति. यदा तु पूर्णं अभेदः एव उच्यते, तर्हि वस्तुद्वयं नास्ति, एकमेव वस्तु इति वयं गणनां कुर्मः. यत् विद्या तदेव धनम्. अतः द्वे पदार्थद्वयमेव नास्ति, एक एव पदार्थः इति रूपकालङ्कारस्य परिगणनम्. उपमालङ्कारे उपमेयः उपमानः उपमानम् इति पृथक् पृथक् भवति. अत्र तु एक एव पदार्थः. सो प्रजाः सन्ति, ताः एव देवताः, तत्र भिन्नं भेदः एव नास्ति. यत्र भेदः तत्र सामान्यधर्मः, अत्र तु नास्ति इति. अस्तु, किसलयपदस्य पर्यायपदं किमपि अस्ति वा? प्ररोहः इत्यस्ति, अङ्कुरम् इत्यस्ति, स्प्रौट् इत्यर्थः, टेण्डर् स्प्रौट् इत्यर्थः. प्रजाः एव मम देवताः तत् पुनः वदतु इति. तत्र क्लेशः किमपि नास्ति. प्रजाः प्रजाः द सिटिजन्स् ये नागरिकाः ते एव देवतास्वरूपाः इत्यर्थः. तत्र प्रजानां देवतानां च अभेदः उच्यते. अन्यः प्रश्नः, उपमेयः एव आदौ भवति वा इति. समासः यदा क्रियते तत्र आम् उपमेयः आदौ भवति, अनन्तरम् उपमानं भवति. विद्या एव धनं, तत्र विद्या उपमेयः, धनम् उपमानम्. वचनानि उपमेयः, कुसुम इति उपमानम्. अत्र एकम् उदाहरणं, सः बहिः व्याघ्रः गृहे मूषकः इति रूपकालङ्कारः वा इति. सः व्याघ्रः इति कथ्यते चेत् रूपकालङ्कारः एव. आम्, केन् देर् बि मोर् देन् वन् उपमेय फार् एन् उपमान इन् अ सेण्टेन्स्? सामान्यतः तथा न भवति. उपमेयः इत्युक्ते यस्य विषये वयं वदामः तत् एकमेव भवति. कदाचित् तु उपमानानि बहूनि भवन्ति. तत्र प्रसिद्धः श्लोकः अस्ति, या कुन्देन्दु तुषारहार धवला, कुन्द इन्दु तुषारहार धवला. कुन्दः नाम कुन्दपुष्पम्, इन्दुः चन्द्रः, तुषार हिमम्, हारः एतादृश धवलं नाम श्वेतत्वं शुभ्रत्वं यस्याः. कदाचित् एकस्यैव वस्तुनः बहूनि उपमानानि दीयन्ते, किन्तु एकस्य उपमानस्य बहवः उपमेयाः भवेयुः. न भवेदिति तु नास्ति, झटिति न स्फुरति. एतानि रूपकालङ्कारस्य उदाहरणानि. उपमारूपकयोः भेदः अवगतः. उपमालङ्कारे उपमेयः भिन्नः, उपमानं भिन्नं, तयोः सादृश्यं वर्ण्यते. रूपकालङ्कारे अभेदः वर्ण्यते, वस्तुद्वयं किन्तु तयोः भेदः नास्ति इति वर्णना क्रियते. अनन्तरं कानिचन काव्योदाहरणानि पश्यामः रूपकालङ्कारस्य. आलम्बे जगदालम्बं लम्बोदर पदाम्बुजम्, शुष्यन्ति यद्रजस्पर्शात् सद्यः प्रत्यूहवार्धयः इति अग्रिमः पादः. लम्बोदर पदाम्बुजं, बहु प्रसिद्धम् इदं रूपकं, चरणकमलम् अतः पादकमलं, पादपद्मं, पदाम्बुजं. पादाः पद्मम्, अनयोः उपमेन उपमान उपमेयभावः. तत्र रूपकालङ्कारः यथेच्छं प्रयुज्यते संस्कृतसाहित्ये. लम्बोदरपदाम्बुजं, लम्बोदरः गणेशः, तस्य पदाम्बुजं, तस्य पादाः पादौ एव कमले, अम्बुजं नाम कमलं. तत् अहम् आलम्बे आश्रित्य अहं भवामि. जगदालम्बं, तस्य पदाम्बुजमेव समग्रस्य प्रपञ्चस्य आलम्बनं, सपोर्ट्, तादृशम् अहम् आश्रयामि इत्यर्थः. अत्र पदाम्बुजम् इत्यत्र रूपकालङ्कारः. अनन्तरम् एकः प्रसिद्धः श्लोकः अस्ति व्यासस्य विषये, अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः अफाललोचनशम्भुः भगवान् बादरायणः. भगवान् बादरायणः, बादरायणः व्यासः, स एव ब्रह्मा हरिः शम्भुः. किन्तु कश्चित् भेदः अस्ति अत्र काव्ये, रमणीयता दृश्यते. सः ब्रह्मा एव, किन्तु अचतुर्वदनः, चतुर्वदन चत्वारि वदनानि. ब्रह्मा चतुर्मुखः, किन्तु व्यासः चतुर्वदनरहितः ब्रह्म. चत्वारि मुखानि न सन्ति चतुर्मुख विरहितः ब्रह्मा द्विबाहुरपरो हरिः हरिः नारायणः तस्य सः चतुर्बाहुः किन्तु व्यासः द्विबाहुः हरिः हरिः एव किन्तु अस्य द्वौ एव बाहू स्तः अफाललोचनः शम्भुः फालं नाम ललाटं ललाटे तृतीयं नेत्रं भवति शिवस्य अयं व्यासः तु अफाललोचनः शम्भुः तृतीयलोचनं विना शिवः भगवान् बादरायणः अत्रापि रूपकालङ्कारः बादरायणः एव ब्रह्मा हरिः शम्भुः तत्र कश्चिद् विशेषः अपि उच्यते अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः अफाललोचनशम्भुः भगवान् बादरायणः अन्यदेकं सुभाषितमस्ति साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः यस्य साहित्यं सङ्गीतं कला एतासु कुत्रापि ज्ञानं नास्ति साहित्यस्य वा सङ्गीतस्य वा कलानां वा ज्ञानं नास्ति साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः सः पशुः एव किन्तु पुच्छविषाणहीनः पुच्छं नास्ति शृङ्गं नास्ति तथापि सः पशुरेव सो साक्षात् पशुः इत्यत्रापि रूपकालङ्कारः रघुवंशे कालिदासः कथयति प्रथमसर्गे प्रजानां विनयाधानात् रक्षणात् भरणादपि स पिता पितरस्तासां केवलं जन्महेतवः दिलीपस्य विषये कथयति दिलीपः राजा सः प्रजानां विनयाधानात् रक्षणात् भरणादपि पितृभ्यां किं किं क्रियते पुत्राणाम् अथवा सन्ततेः रक्षणं भरणं रक्षणं करणीयं तेषां पोषणं करणीयं तेन सह किं करणीयं विनयाधानं तेषु सद्गुणाः स्थापनीयाः कालिदासः तदेव प्रथमं कथयति बहु उत्तमः श्लोकः तत्र तत्र रूपकालङ्कारः अत्र अस्ति सः दिलीपः एतत् सर्वमपि कृतवान् सर्वेषामपि प्रजानां विनयाधानात् रक्षणात् भरणात् सः पिता दिलीपः एव तेषां पिता तर्हि प्रजानां पितरौ भवतः किल पिता माता तासां पितरः केवलं जन्महेतवः पितरः केवलं जन्म दत्तवन्तः वस्तुतः पितृभ्यां यत् कर्तव्यं तत्सर्वमपि सः करोति स्म सर्वेषां प्रजानाम् अतः सः पिता दिलीपः एव पिता इति रूपकालङ्कारः अत्र विशिष्य अयमंशः वयं केवलम् अस्माकं सन्ततिं रक्षित्वा भरणं कुर्मः तत्तु सर्वे कुर्वन्ति किन्तु विनयाधानात् अन्यदपि पितॄणां दायित्वं भवति प्रजासु विनयाधानं विनयः नाम गुणः सद्गुणानां प्रतिष्ठापनमपि पितॄणामेव कार्यं भवति तत्सर्वमपि कृतवान् इत्यतः सः पिता दिलीपः पिता इत्यत्र रूपकालङ्कारः बहूनि उदाहरणानि लभ्यन्ते उपमायाः रूपकस्य वा किमपि किं दारिद्र्यमेव नास्ति सर्वत्र पदे पदे लभ्यन्ते कानिचन उदाहरणानि मया दृष्टान्तत्वेन प्रदर्शितानि अग्रिमः अलङ्कारः अतिशयोक्तिः अलङ्कारः अत्र उपमा रूपकम् अतिशयोक्तिः एतेषां ग्रेडेशन् दृश्यते अतिशयोक्तिः नाम उपमालङ्कारे किं कृतवन्तः उपमेयः अस्ति उपमानमस्ति एतद्वयं सदृशमस्ति इति उक्तवन्तः अग्रे रूपकालङ्कारे किम् अभवत् उपमेयः अस्ति तदेव उपमानम् इति अभेदं कृतवन्तः अत्र अतिशयोक्तौ किं भवति, उपमेयः एव नास्ति, केवलम् उपमानमेव उच्यते. उपमेयः सर्वथा त्यज्यते, नाम अत्र इतोपि अत्यन्तं सादृश्यं यत्र उपमानं वक्तव्यमेव नास्ति, क्षम्यताम् उपमेयः वक्तव्यः एव नास्ति, केवलम् उपमानमेव कथ्यते. विषयस्य अनुपादानात् विषयी उपनिबध्यते इति अतिशयोक्तेः लक्षणं. यत्र उपमेयम् अनुक्त्वा केवलेन उपमानेन वर्णनं क्रियते, सा अतिशयोक्तिः. उपमेयः एव न उच्यते. उदाहरणं पश्यामः. भाग्यं मम परमेश्वरः समागतः. कश्चित् गृहमागच्छति, अत्यन्तं श्रेष्ठः, कदाचित् राजा अथवा नायकः साक्षात् आगच्छति. किमुच्यते? परमेश्वरः समागतः. कः इत्यपि नोच्यते. प्रसङ्गतः ज्ञायते, किन्तु केवलम् उपमानम्. सः नायकः परमेश्वरः इव इति न. नायकः साक्षात् परमेश्वरः इत्यपि न. परमेश्वरः इत्येव उच्यते. हैपर्बोल्, सिमिलि, मेटाफर्, हैपर्बोल्. सो यत्र उपमानम् उपमेयः दे आर् सेपरेट् एण्ड् देर् इस् ओन्ली अ सिमिलारिटि, तत्र उपमा. उपमानम् उपमेयः समानं, दे आर् सेट् टु बी द सेम्, बट् यु आर् स्टिल् इण्डिकेटिङ्ग् बोत्. उपमेय उपमानयोः उभयोः वचनं, वचनेन निर्देशः क्रियते, किन्तु अभेदेन व्यवहारः क्रियते. तत्र रूपकं, वेर् यु डोण्ट् इवन् स्पेसिफै द उपमेय, यु जस्ट् डिरेक्ट्लि स्टेट् ओन्ली द उपमान, बिकास् द सिमिलारिटि सो मच्. ओके, दट् इस् अतिशयोक्ति. एक्साजरेशन् इति सामान्यतः, अथवा हैपर्बोल् इति कथ्यते. अहो, सिंहः आगच्छति, कश्चित् अत्यन्तं वीरः पुरुषः तत्र मार्गे गच्छति चेत् तत्र सिंहः आगच्छति. अयम् अलङ्कारः वस्तुतः व्यवहारे अस्माभिः बहुधा प्रयुज्यते. इदानीं किमपि यथा कुत्रचित् चलच्चित्रे यदा नायकः प्रविशति तदा बेक्ग्रौण्ड् म्यूसिक् किमपि भवति, सिंहः इति वा तस्य किमपि विशेषमुक्त्वा. अतः वेर् द उपमान इस् कम्प्लीट्लि सूपर् इम्पोस्ड् आन् द उपमेय, उपमेयः एव न दृश्यते, केवलम् उपमानं दृश्यते, सा अतिशयोक्तिः इति कथ्यते. व्याघ्रं मा कोपय, डोण्ट् पोक् अ स्लीपिङ्ग् लयन् और् अ स्लीपिङ्ग् टैगर्. सो व्याघ्रं मा कोपय. कः व्याघ्रः? प्रसङ्गशः ज्ञायते. एतत् स्मर्तव्यम्. अतिशयोक्तौ केवलं शब्दशः पूर्णः अर्थः न अवगम्यते, कस्य विषये उच्यते इति न ज्ञायते, प्रसङ्गादेव ज्ञायते. किन्तु तस्मिन् प्रसङ्गे अत्यन्तं प्रसिद्धः सः भवति इत्यतः तत्र केवलेन उपमानेन अर्थबोधः भवति. तिमिङ्गिलस्य अस्य तृप्तिः एव नास्ति. तिमिङ्गिलः इति कश्चित् मीनः. सो यः अन्यान् मीनान् गिलति, सो तिमिङ्गिलस्य अस्य तृप्तिः एव नास्ति. सः सर्वमपि भक्षयति, कियत् अपि दत्त्वा तस्य तृप्तिं साधयितुं न शक्नुमः इत्यर्थः. सन्त्यत्र बहवः मेषाः. मेषाः शीप्. सो केचित् चोराः परस्परं भाषन्ते, कुत्रचित् गत्वा ओ सर्वेपि जागरूकतां विना सन्ति, अतः अत्र बहवः मेषाः सन्ति, वयं बहु सुलभतया वञ्चनं कर्तुं शक्नुमः इति उच्यते. अतः केवलं मेषाः इत्येव कथ्यते. अत्र किम् उपमेयः नास्ति. मेषः इति उपमानं, तिमिङ्गिलः इति उपमानम्. तारासङ्कुलः एव सम्मिलितः. यत्र बहवः प्रसिद्धाः आगच्छन्ति तत्र किमुच्यते? एन् असेम्ब्लि आफ् स्टार्स्. बहु प्रसिद्धतया आङ्ग्लभाषया वा प्रादेशिकभाषासु वा अस्य अलङ्कारस्य बहुधा प्रयोगः क्रियते. भवन्तः वार्तापत्रिकासु हेडिङ्ग् पश्यन्ति चेत् सो अ गेलाक्सि आफ् स्टार्स् इति कथ्यते. तत्र किं स्टार् गेलाक्सि, किं स्टार्स्, किं सर्वे जानन्ति. तत्र प्रसिद्धाः नायकाः वा, क्रीडापटवः वा, चलच्चित्रनटाः वा भवन्ति. सो तारासङ्कुलः एव सम्मिलितः. कथं सूर्यः आकाशादवतीर्य गृहं प्रविष्टः? सो कश्चित् बहु विरलतया गृहमागच्छति. सः अत्यन्तम् अहङ्कारी, सर्वदा स्वस्थाने एव भवति. सः कदाचित् गृहमागच्छति चेत् कथं सूर्यः आकाशादवतीर्य गृहं प्रविष्टः? अत्र सर्वत्र मया उक्तं, पुनः कथ्यते, हौ टु प्रिडिक्ट् हू द उपमेय इस् यु केनाट्. प्रसङ्गज्ञानं विना अतिशयोक्तिः अवगन्तुं न शक्यते. सो यु केन् ओन्ली गेट् अ सुपर्फिशियल् मीनिङ्ग्. किन्तु कः व्याघ्रः कस्य विषये उच्यते इति प्रसङ्गात् एव द्रष्टुं शक्यते. बहुत्र भवति कुम्भकर्णः उत्थितः, कश्चित् सर्वदा निद्रालुः, उत्तिष्ठति चेत् तस्य परिहासः क्रियते, कुम्भकर्णः उत्थितः इति. कः कुम्भकर्णः? तस्मिन् प्रसङ्गे सर्वेपि जानन्ति, प्रसङ्गं विना तु ज्ञानं न भवति इति अतिशयोक्तिः. काव्येभ्यः किञ्चित् पश्यामः. पश्य नीलोत्पलद्वन्द्वान् निस्सरन्ति शिताश्शराः. नीलोत्पलद्वन्द्वात्, नीलोत्पलम् इति पुष्पम्, इट्स् अ डार्क् लिलि. नीलोत्पलद्वन्द्वात्, फ्रम् अ पेर् आफ् डार्क् लिलीस्, शिताः शराः निस्सरन्ति. शिताः अत्यन्तं तीक्ष्णाः बाणाः निस्सरन्ति, बहिरायान्ति. अत्र किं, काचित् स्त्री, तस्याः नेत्रद्वयमेव नीलोत्पलद्वन्द्वम् इति कथ्यते. नेत्रस्य, नीलोत्पलस्य च उपमान उपमेयभावः. तस्याः कटाक्षाः, इफ् शी इस् ग्लेरिङ्ग् अट् यू, सो शिताः शराः. सो शार्प् आरोस् आर् शूटिङ्ग् औट् फ्रम् अ पेर् आफ् डार्क् लिलीस्. अत्र शिताः शराः इति कटाक्षाणाम् उपमानम्, नीलोत्पलद्वन्द्वः इति लोचनद्वयस्य उपमानम्. अत्र लोचनस्य वा कटाक्षस्य वा उल्लेखम् अकृत्वा केवलम् उपमानम् उच्यते, अतः अतिशयोक्तिः. स्थाने कल्पतरुर्जातः काकतीयमहोदधेः. कल्पतरुः, कल्पवृक्षः कुतः भवति? उदधेः, क्षीरसमुद्रात् उद्भूतः इति कथा. अत्र कस्यचित् महाराजस्य विषये कथ्यते. प्रतापरुद्रः इति महाराजः, सः काकतीयवंशे जातः. तत्र किमुच्यते? कल्पतरुः जातः, कल्पवृक्षः, सः बहु दानं करोति, अतः कल्पवृक्षः इव. कल्पवृक्षः जातः कस्मात्? काकतीयमहोदधेः. काकतीयवंशः एव समुद्रः इति रूपकम्, किन्तु काकतीयमहोदधेः कल्पतरुः जातः इति, कः कल्पतरुः इति नोच्यते, अतः अतिशयोक्तिः. चम्पूरामायणे एकः प्रसिद्धः श्लोकः अस्ति, कारुण्यापं त्रिदश परिषत् कालमेघं ददर्श. यदा देवाः विष्णोः समीपं गच्छन्ति, रावणस्य पीडा बहु अधिका आसीत्, तदा तस्य नियन्त्रणार्थम् अवतारं कर्तुं देवाः वैकुण्ठं गत्वा भगवन्तं प्रार्थयन्ते. तत्र कविः कथयति, त्रिदश परिषत्, त्रिदशाः देवाः, देवानां परिषत्, देवानां समूहः कालमेघं ददर्श. कालमेघः नाम कृष्णवर्णस्य कश्चित् मेघः, अ ब्लाक् क्लौड्. सो द ग्रूप् आफ् देवास् सा अ ब्लाक् क्लौड्. कालमेघं ददर्श, कीदृशः कालमेघः? कारुण्यापः, आपं नाम जलं. किं जलं? मेघः. कदा मेघः कालमेघः भवति? यदा जलं भवति. अत्र किं जलं? कारुण्यरूपं जलं. कारुण्यरूपजलेन पूरितम् एकं मेघं दृष्टवन्तः. कः मेघः? प्रसङ्गात् ज्ञायते विष्णुः. विष्णुः एव कालमेघः, तत्र विष्णुः इति नोच्यते. केवलम् उपमानस्य निर्देशः क्रियते, कालमेघं ददर्श, प्रसङ्गतः सः विष्णुः इति ज्ञायते, अतः अतिशयोक्तिः. समानरीत्या अन्यः अपि श्लोकः अस्ति, कलिन्दगिरिनन्दिनी तटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी. शब्दालङ्कारः अपि अस्ति, उम्ब 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 इति नकारस्य इत्यादि. अत्र कापि कादम्बिनी, कादम्बिनी इत्युक्ते मेघमाला, ग्रूप् आफ् क्लौड्स् इत्यर्थः. सा मदीयमतिचुम्बिनी, मम बुद्धिं स्पृशतु इति वर्णनं क्रियते. तत्र कृष्णः, वस्तुतः अत्रापि कृष्णः विवक्षितः, साक्षात् कृष्णः इति न कथ्यते. कलिन्दगिरिनन्दिनी इत्युक्ते यमुना इत्यर्थः. यमुनानद्याः तटे सुरद्रुमाः, देवाः एव वृक्षाः, तेषाम् आलम्बिनी, तेषां वृक्षाणां जीवजलं या ददाति तादृशी मेघमाला. प्रसङ्गतः ततः यमुनानदी इत्यादि वर्णनात् कृष्णः इति ज्ञायते, किन्तु साक्षाद् उपमेयः न कथ्यते, अतः अतिशयोक्तिः. अत्र अर्थालङ्कारेषु त्रयः अलङ्काराः दृष्टाः. उपमा इत्युक्ते उपमान उपमेययोः सादृश्यम् उच्यते. रूपकम् इत्यत्र उपमान उपमेययोः अभेदः दृश्यते. अतिशयोक्तौ उपमेयं विना उपमानरूपेणैव वर्णनं भवति. So all these are based on upama. In upama, the upamana and upameya are separate. They are specifically said to be similar. In rupaka, you still mention the upamana and upameya, but they are treated as the same. So you say that the upameya itself is the upamana, or it is another upamana, and so on. Atishayoktau उपमेयः एव नास्ति. यु डोण्ट् इवन् मेन्शन् द उपमेय, यु डिरेक्ट्लि यूस् द उपमान. अवगतम्? एवम् एतेषाम् अलङ्काराणां भेदः भवति. अस्तु, इदानीं प्रश्नानाम् उत्तरं दास्यामि. तत्र काकतीय इत्यस्य कः अर्थः? काकतीय इति वंशः, इट् इस् अ डिनास्टि आफ् किङ्ग्स् इन् आन्ध्र. ओके, महोदधिः महान् उदधिः नाम महासमुद्रः इत्यर्थः. अतिशयोक्तिः लुप्तोपमा इत्यपि वक्तुं शक्यते वा इति न. देर् इस् अ क्लियर् डिफरेन्स् नो. अत्र अतिशयोक्तेः लुप्तोपमायाः भेदः अस्ति. लुप्तोपमायाम् इट् इस् क्लियर् दट् इट् इस् उपमा, केचन अंशाः लुप्ताः. अत्र तु साक्षात् उपमानरूपेणैव वर्णनं भवति. गृहं गत्वा पश्यन्तु, भेदः अस्ति. अतिशयोक्ति इस् नाट् लुप्तोपम. यु आर् गोयिङ्ग् टु एन् एक्स्टेण्ट् दट् यु आर् नाट् इवन् एक्नालेड्जिङ्ग् द प्रेसेन्स् आफ् उपमेय. यु आर् डिरेक्ट्लि स्पीकिङ्ग् ओन्लि अबौट् उपमान. अनन्तरं अत्र The beauty of her face puts moon to shame. Exaggeration. Vastutah atishayoktau bahavah prabhedah santi. There are many different kinds of atishayokti. Atra ekah eva prakarah varnitah. Atah atishayoktah bhinnah prakarah santi. Anye api ito api shatam alankarah santi. Etat smartavyam. all alankaras that you see need not be clubbed in this. Yatra upameyaha eva adhikaha iti varnyate, tatra anyaha alankaraha bhavati. Upamanadapi upameyaha eva adhikaha iti varnyate, tatra anyaha alankaraha asti, alankara visheshaha. अस्तु स्वामिन् राघव सिंह अत्र कः अलङ्कारः राघवः सिंहः इति अनयोः राघवः एव सिंहः राघव सिंहः इति अभेदः रूपकालङ्कारः केशः इत्यस्य कः अर्थः कुत्र अस्ति केशः इति केशः इत्युक्ते हेर् इत्यर्थः घनश्यामः इति पूर्वत्र यदुक्तं सा अतिशयोक्तिः भवितुमर्हति वा इति तत्र तु अतिशयोक्तिः केवलं यथा कालमेघं ददर्श इत्युच्यते तथा वक्तुं शक्येत अतिशयोक्तिः इति रोहन महोदय
नमो नमः मैम एक्चुअली देयर वाज वन वर्ड्स बिकॉज़ व्हाटएवर द क्वेश्चंस ऑन द एग्जांपल्स व्हिच यू हैव गिवन एज यू सेड देयर ओनली अ टिपिकल वर्ड इज बीइंग गिवन एंड वी आर सीइंग दैट इट इज अतिशयोक्ति सो देयर इज वन वर्ड्स इन योगरत्नाकर एंड इट स्टेट्स अबाउट द ट्रीटमेंट फॉर एलोपेसिया And they have given one example. Hastidanta mashim kritva chagi dugdam rasanjanam lomani etena jayante lepat pani taleshu api. Is this an example of ye is prakar ke examples ho sakte hain kya?
Atishayokte hai va? Kaha artha ha? Punah vadato shlok.
Hastidanta mashim kritva. Hastidanta mashi is burning the ivory. Chagidugdam is ajadugdam,
yes.
Rasanjanam. Rasanjanam is also one more one ingredient in that. Application of this lep. Lomani etena jayante. Lomani are the fine hairs.
Yes.
Lomani etena jayante lepat pani taleshu api. That is what he says in the verse.
So pani taleshu api lomaha bhavan. Kintu atra kim upameyam asti. He says even in the palm hair will grow. So there is no comparison.
So is it an example of atishayokti?
No, there is no what is being compared. There is no comparison. He is just saying that by this, even hairs will grow because, the palms are usually free of hair, but this is so potent that hair can grow even in this one. So, don't take atishayokti as simple exaggeration. If that is why you are asking, atishayokti is not simple exaggeration. No. That is why I say, there are different alankaras for exaggeration. So, always, please don't go by the English terms for any Shastra. I don't mean only in Alankara. So, if you just take as exaggeration, Atishayokti is not plain exaggeration. There are different kinds of Atishayokti where there are specific Lakshanas. There are also other Alankaras which appear like exaggeration. There is Utpreksha, there are other Alankaras. So, don't go by the term that Atishayokti is not exaggeration. It is just an English term to maybe get an idea. But this particular kind of Atishayokti is where you are not mentioning the Upameya and telling only the Upamana. There are other kinds of Atishayokti also. So, always in any of the Shastras, it is always better to know the term in Sanskrit and understand what it means rather than using an English term because it may lead to lot of confusion. Okay. So, Sandhi, if you just take it as joining. Joining what? So, Sandhi is a specific Paribhashika Pada and Samasa is a specific term. Both of them are joining what? So, you should not go by the English terms rather by the Lakshana of that particular Sanskrit term. ओके ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते अर्जुन. सो ज्ञानाग्निः ज्ञानम् एव अग्निः रूपकालङ्कारः. श्रीरङ्गं भूलोकवैकुण्ठम्, भूलोकवैकुण्ठः इति रूपकालङ्कारः सत्यम्. ओके हा, अद्यतन अन्ये केऽपि प्रश्नाः सन्ति वा? ऐ विल् पुट् आल् हेण्ड्स् डौन्. यदि प्रश्नः अस्ति तर्हि हस्तमुन्नयन्तु. अन्यः एकः प्रश्नः अत्र अस्ति, वेन् फार्मिङ्ग् उपमाना शुड् वि फालो एनी रूल्स्, कम्पेरिङ्ग् ओन्ली सिमिलर् जेण्डर् और् कम्पेरिङ्ग् ओन्ली वन् टेञ्जिबल् थिङ्ग् वित् अदर्. नास्ति तथा नियमः कोऽपि नास्ति, किन्तु पुनः पुनः काव्यानाम् अध्ययनेन कीदृशानि कीदृश्यः उपमाः भवन्ति इति ज्ञायते. यु केन् अफ्कोर्स् क्रियेट्, सी द फैनल् थिङ्ग् इस् केन् यु कन्वे युवर् ऐडिया वित् द अलङ्कार. अलङ्कारः चमत्कारप्रदर्शकः, तावदेव. अतः तादृशं नूतनमपि स्रष्टुं शक्यते, विशिष्य नियमाः न सन्ति. सुब्रह्मण्यं महोदय.
No questions, ma'am.
Okay. Radhika Lakshminarayanan.
Hari Om. I don't know whether this my question about that Grama Simhaha was answered, because I got disconnected temporarily. When you say Grama Simhaha for dog, does it fall into any of these categories?
That is actually more like an idiom, idiomatic usage. Gramasya Simhaha. More of an idiomatic usage. It is through Rupaka, based on Rupaka. You are saying that it is the Simha of the this one. Just like we say Griha Lakshmi, Lakshmi of the house. It is the Simha of the village because it protects. That's all. It is based on this one. Rupaka. Umadevi. Prashna hasti.
Meshaha meaning.
Meshaha, sheep.
Sheep. Okay, thank you.
That which can be easily deceived. Okay. Ramakrishna Rao, Mahodaya.
Padambujam va padambujam.
Tatra padambujam ityasi. Pada shabdasya pat iti adeshaha bhavati. Ataha padambujam ityapi asti, padambujam ityapi asti.
Dhanyavada.
श्रीमती भगिनी,
बादरायण उदाहरणे ब्रह्म इत्युक्ते चत्वारि मुखानि तदेव ब्रह्म इति प्राधान्यं, तत्र तदेव नास्ति बादरायणविषये. तदनन्तरं फाललोचन, नेत्रे ललाटे नेत्रं नास्ति, किमर्थं तत्र तोलनम्?
न, सः शिवस्य चतुर्मुखत्वं or those are just physical manifestations. Brahma, the mukhya thing why he is called Brahma is not because he has four faces, because he knows all the Vedas. That is the tolanam. Yatha Brahma sarvan vedan janati tatha vedavyasaha. That is the point of comparison. Just that he does not have that physical manifestation of three or four faces. So similarly with Vishnu, whatever the other attributes of Vishnu, he has it. Only the physical four arms are not there. Okay. Mahadevan mohane, bhavatah prashnah kaha? Mahadevan, Mahadev, there was a question you typed in. I was not sure what you meant. Kararavindena padaravindam. Okay. So, anye kepi prashnaha santiva? Raj Mohane.
Sri Gurubhyo Namaha. So, mind, sorry, water is as clear as the mind. So it's like a reverse. Usually we see a visible thing and we compare with something invisible. Here is reverse. He's seeing the water and comparing to an invisible.
Exactly. I mean, it need not be visible at all. I mean, it should be perceptible. When I say jnanam eva agnihi, so jnana is knowledge, which is not a physical thing. It's an abstract thing. It is being compared to agni, fire. So there is no limitation on that it should be visible or perceptible or anything.
Thank you.
Meenakshi. Prashna Hastiva. ओके अंतिमं राधिका भगिनी प्रश्नः अस्ति वा
या सो व्हेन वी आर कंपेयरिंग देयर मे बी मेनी एस्पेक्ट्स दैट मे बी कॉमन राइट लाइक व्हेन यू से लाइक अ करा कमलम देन इट मे बी द ब्यूटी मे बी द कलर मे बी द सॉफ्टनेस सो देयर आर मेनी क्वालिटीज और एस्पेक्ट्स दैट मे बी कंपेयर्ड बिटवीन द उपमानम एंड द उपमेयम राइट
Yes. Possible. It need not be a saman dharma. It could be the whole thing. So there could be many attributes, in which case it may not even be mentioned. That is why it may be lupta. Because they say it is wholly resembling in various aspects also.
Okay, like that kalamegam, then both the color as well as that karunya vasha.
The kalamegam, as if you look at the whole this one, there are many things which are compared. He says, Santapaghnam Sakala Jagatam. So there are many attributes of Megha which are all in Vishnu. The first one is it takes away the heat. And then it has a bow. Like the rainbow, there is a bow. Shanga Chapa Abhiramam. There is lightning. So it's a very detailed comparison. Yes. It is definitely possible.
Okay. Okay.
So we'll stop here. Agrima Vargaha, Agrima Shukravasare. So just yatana abhyase tadeva vakyani santi esho kaha alankaraha iti nirdeshtavyam tatra vishishya maya prasangaha dattaha etohi kadachit prasangam vina alankaraha gyatum na shakyate ataha prasangam dattva vakyam dattamasti tasmin prasange tam vakyam yadi upayujyate tarhi kaha alankaraha iti vaktavyam गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो धन्यवादाः अग्रिमवर्गे पश्यामः